महोदय
आम् अहम् अस्मि
आम् आम् प्रश्नः श्रुतः वा
न
अस्तु 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 तर्हि किं वदन्ती अस्मि गतसप्ताहे अस्माकं विषयः आसीत् स्नेहः निमित्तकारणम् इति पिण्डीभावं प्रति विस्तृतरीत्या कथं स्नेहः पिण्डीभावम् निमित्तकारणम् अस्ति पिण्डीभावं प्रति इति अस्माभिः दृष्टं किञ्चित् वदति वा तद्विषये सुनील् महोदय
अहं परिश्रमं करोमि अत्र वयं समवायिकारणम् असमवायिकारणम् इति स्वीकृत्य त्रयः बिन्दवः दृष्टवन्तः अत्र समवायिकारणे अत्र कार्यतायां च कारणतायां समवायसम्बन्धः च तादात्म्यसम्बन्धः इति दृष्टवन्तः अनन्तरम् असमवायिकारणे प्रथम असमवायिकारणे उभयोरपि समवायिकारणम् इति दृष्टवन्तः कारणतायां कार्यतायाम् इति अनन्तरं द्वितीय असमवायिकारणे यदा कपालः कार्याधिकरणम् इति स्वीकुर्मः चेत् तत्र कार्यतावच्छेदकः स्वसमवायित्वसम्बन्धः कारणतावच्छेदः समवायसम्बन्धः इति अपि दृष्टवन्तः तादृशरीत्या अत्र स्नेहस्य विषये
किम् यदि कपालः कार्याधिकरणं नास्ति चेत् अन्यः किमपि कार्याधिकरणं
तत्र किञ्चित् स्वसमवेदत्वसमवायित्वम् इति भवति कार्यतावच्छेदः कारणतावच्छेदः
तत्र तु किम् अस्ति कार्याधिकरणं
कार्याधिकरणं घटः इति स्वीकुर्मः चेत् अत्र कार्यतावच्छेदकः समवेदत्वसमवायित्वम् इति भवति सम्बन्धः इति भवति
किञ्चित् पश्यति तत्र घटः इति कार्याधिकरणं तर्हि कपालपरिमाणं घटपरिमाणम् इति उदाहरणं खलु तत्र द्वितीयसमवायिकारणे कार्याधिकरणस्य परिवर्तनेन घटः इति कार्याधिकरणं घटपरिमाणं कुत्र अस्ति तस्य
घटपरिमाणं घटे समवायसम्बन्धेन अस्ति
हा साक्षात् घटे एव अस्ति खलु तत्र तथा न चिन्ता मास्तु
कार्यतावच्छेदकः समवायसम्बन्धः समवायसम्बन्धः कारणतावच्छेदकः स्वसमवेदत्वसमवायित्वसम्बन्धः इति भवति
पुनः पुनः वदतु महोदय
अत्र घटपरिमाणं घटे कार्याधिकरणे अस्ति कपालपरिमाणं स्वसमवेदत्वसमवायसम्बन्धेन
अस्तु कपालपरिमाणं कुत्र अस्ति
कपालपरिमाणं कपाले अस्ति
समवायसम्बन्धेन पुनः कपालः घटे आनेतव्यं खलु आनेतव्यः तर्हि घटे केन सम्बन्धेन अस्ति
घटे तत्रापि समवायसम्बन्धेन कपालपरिमाणं वा
कपालः प्रथमं तु कपालपरिमाणं कपाले समवायेन द्वितीयं तु कपालः पुनः कपालः
समवेदसम्बन्धेन अस्ति
समवेदत्वसम्बन्धेन अतः आहत्य
कपालपरिमाणं स्वसमवेदत्वसमवायसम्बन्धेन अस्ति
त्वरितरीत्या खलु स्व इति कपालपरिमाणं स्वम् इति
समवेदत्वसम्बन्धेन अस्ति
घटे अस्ति इति खलु तर्हि सरला भगिनी अस्ति खलु तर्हि स्नेहस्य स्थितिः का
स्नेह जले समवायिकारणम् अस्ति स्नेहस्य संयोगः यदि पिष्टिना भवेत् तद् पिष्टं समवायेन भवति विलक्षणसंयोगः पिण्डीभावः तत् कार्यं पिष्टे पिण्डीभावः अस्ति समवायसम्बन्धेन इदानीं यदि स्नेह कथं पिष्टे भवति तत् परम्परासम्बन्ध स्नेह भवति स्वं स्वं संयुक्तत्वसम्बन्धेन स्व आश्रयसंयुक्तत्वसम्बन्धेन स्नेह पिष्टे भवति कार्याधिकरणम् अत्र भवति पिष्टं समानकार्याधिकरणं योजित्वा वयं स्नेह कार्याधिकरणे आनेतुं शक्नुमः
तर्हि तत्र कार्यतावच्छेदकसम्बन्धः
कार्यतावच्छेदकसम्बन्धः भवति समवायसम्बन्ध कारणतावच्छेदकः भवति स्व आश्रयसंयुक्तत्वसम्बन्ध
तर्हि कथं भिद्यते एतत् युगलं कथं
यदा यथा सुनीलमहोदय उक्तवान् समवायिकारणत्वं नास्ति अत्र यद्यपि कार्यं समवायसम्बन्धेन अस्ति किन्तु कारणं तादात्म्यसम्बन्धेन नास्ति अत्र तत् इति कारणे समवायिकारणं नास्ति पुनः कारणं समवायसम्बन्धेन अपि नास्ति यद्यपि कारणं समवायसम्बन्धेन अस्ति अत्र प्रथमविध असमवायिकारणमपि न भवति यदि द्वितीयविध असमवायिकारणं वयं स्वीकुर्मः तदपि स्वसमवायिसमवायतत्वेन यदि स्वीकुर्मः तदपि नास्ति कारणं स्वसमवायिसमवेतत्वं सम्बन्धेन तदपि नास्ति समवायि असमवायिकारण स्नेह पृष्ठे न भवति केवलं स्व आश्रयसंयुक्तत्वसम्बन्धेन अस्ति अतः स्नेहस्य पिण्डीभावं प्रति निमित्तकारणं भवति
बहु समीचीनं भगिनि अस्तु तत् सर्वम् उक्त्वा अग्रे सरेम भवती पठति वा पठितुं शक्नोति खलु
आमाम्
अस्तु
यदि अहं गच्छामि अहं वदामि
अस्तु
निमित्तकारणतया अन्यत् उदाहरणम् इत्थमेव तच्चक्रदण्डादीनां घटं प्रति कारणत्वं निरूपणीयं तत्र घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेनैव सत्त्वात् निमित्तकारणत्वम् अग्रे पठामि वा प्रथम द्वे पाठे प्रतिपादने अस्तु यथा पूर्वं वयं स्नेह पिण्डीभावं प्रति निमित्तकारणं प्रतिपादयामः तथैव अन्यानि उदाहरणानि सन्ति निमित्तकारणं प्रति
कारणत्वेन
प्रसिद्ध अस्माकं घटनिर्माणस्य प्रति चक्रदण्डादि कथं निमित्तकारणं भवति घटं प्रति तस्य उदाहरणम् अत्र अस्ति घटस्य समवायेन अधिकारणे कपाले चक्रस्य संयोगेनैव सत्त्वात् निमित्तकारणत्वात् घट कपाले समवायसम्बन्धेन अस्ति इदानीं चक्र कथं कपाले केन सम्बन्धेन चक्र कपाले अस्ति तत्र अत्र अग्रे वयं दृष्टामः, चक्रकपाले निमित्तकारणत्वात् इति अत्र दत्तमस्ति. तत्र चक्रकपाले समवायी असमवायी प्रथम वा द्वितीय असमवायिकारणकारणे नास्ति.
कथम् अत्र अत्रैव दीयते खलु, केन केन सम्बन्धेन अस्ति कपाले?
चक्रकपाले निमित्तकारणत्वात् अस्ति अत्र.
एकनिमिषं, सम्बन्धेन इति
संयोगने चक्रकपाले संयोगसम्बन्धः अस्ति. कार्याधिकरणं कपाल अस्ति, तस्य कारणम् अस्ति चक्र, संयोगसम्बन्धेन कपाले. कपाले कार्यम् अस्ति घटनिर्माण समवायसम्बन्धेन.
अस्तु अस्तु, अतः तस्य निमित्तकारणत्वम् इति. अग्रे पठतु भगिनि.
दण्डस्तु कपाले परम्परासम्बन्धेन भवति, तच्च परम्परासम्बन्ध स्वजन्य भ्रमिजन्य भ्रमितारूपः. भ्रमितारूपः क्षम्यताम्. दण्डं यदि संयोगेन कपाले स्थापयामः कपाल नश्ये, किन्तु चक्रे विद्यमानं यत् छिद्रं तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति, तत् संयोगवशात् चक्रे अपि भ्रमे भ्रमणम् उत्पद्यते, तेन च भ्रमणेन कपाले अपि भ्रमणम् उत्पद्यते. अतः स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः, तज्जन्यभ्रमिः कपालनिष्ठाभ्रमिः, तादृशभ्रमिमता कपाले इति अनेन परम्परासम्बन्धेन दण्डः समवायिकारणे स्थित्वां घटं कार्यं जनयति इति. इहापि अन्य एव सम्बन्ध कार्यकारणभावघटकः. अतः दण्डः घटं प्रति न समवायिकारण नापि असमवायिकारण किन्तु निमित्तकारणम्. अत्र दत्तमस्ति दण्डकपाले परम्परासम्बन्धेन भवति, सः परम्परासम्बन्ध कीदृश अस्ति, तस्य नाम अस्ति स्वजन्यभ्रमिजन्य भ्रमिमतारूपः. अत्र अग्रे दत्तमस्ति सच्च सम्बन्धः कथं भवति. दण्डं यदि संयोगेन कपाल,
किमर्थं परम्परासम्बन्धः इति अस्ति?
साक्षात् समवायिकारणं नास्ति, साक्षात् दण्ड संयोग कपाले नास्ति. अतः द्वयो मध्ये परम्परासम्बन्ध स्थापनीयम् आवश्यकम् अस्ति. ब्रह्मक्रियायाः कपाल दण्ड यदि दण्डेन भ्रमणक्रिया भवति, ता भ्रमणक्रिया चक्रे अपि भवति, तत् क्रियायाः कपाल अपि भ्रमिमान् भवति, तद् कपालस्य निर्माणं भवति, तदनन्तरं घटस्य निर्माणं भवति. अतः परम्परासम्बन्धः स्थापनीयम् आवश्यकम्.
आवश्यकम् इत्युक्ते अन्यः विकल्पः नास्ति, यतोहि दण्डं यदि परम्परासम्बन्धेन नास्ति किं भवति, तत्र भङ्गं भवति इति खलु. सुनील् महोदय किञ्चित् वदति वा?
अत्र इदानीं घटकपालयोः मध्ये अत्र समवायसम्बन्धः अस्ति, चक्रकपालयोः मध्ये संयोगसम्बन्धः अस्ति. दण्डः तु कपालस्य समवायिकारणं नास्ति अथवा असमवायिकारणमपि नास्ति, परन्तु तद् परम्परासम्बन्धेन कपाले भवति इति.
तत्र छिद्रम् इति अस्ति खलु?
आम्, इत्युक्ते अत्र यदा दण्डे यत् क्रिया भवति तदेव कपाले परम्परया आगच्छति इति.
भगिनि, यदि दण्ड कपाले संयोगः भवति यदा दण्डेन कपालं पातयामः स्थापयामः कपालभङ्गः भवति, तद् कपालं नश्येत्, तु कपाल एव नास्ति तत्र, सो अतः परम्परासम्बन्ध स्थापनीयम्.
इत्युक्ते तत्र चक्रे एकं छिद्रम् अस्ति, तस्मिन् स्थापयित्वा दण्डभ्रमणेन चक्रभ्रमणं भवति इति. तत् कीदृशसम्बन्धः इति वदति वा सरला भगिनी?
अस्तु, यदा भवती यथा भवती उक्तवती चक्रे एकं छिद्रं धारयामः प्रथमं, तदनन्तरं दण्डं स्थापयामः, तत्र दण्डेन भ्रमणं यदा भवति तद् भ्रमणस्य कारणे चक्रमपि भ्रमणं भवति इति कारणे तत् भ्रमणकार्यं कपालमपि भ्रमणम् उत्पद्यते. सो अतः स्वजन्यभ्रमि दण्डेन जन्यभ्रमि इति भ्रमणक्रिया, दण्डेन जन्यभ्रमणं चक्रनिष्ठभ्रमि, तत् कारणं भवत्याः चक्रे अपि भ्रमणं भवति, तत् कार्यं चक्रनिष्ठ भवति. ता क्रियाः कपालनिष्ठा भ्रमी, ता अपि कपालनिष्ठा अस्ति इति कारणे तादृशभ्रमिमता कपाले एतादृशरूपं तद् भ्रमण तस्य धर्म भवति भ्रमिमता वा तस्मिन् भ्रमित्वं भवति भ्रमिमत्वं कपाले भवति. स्वजन्यभ्रमि जन्यभ्रमिमता वा स्वजन्यभ्रमि भ्रमिमत्वं कपाले भवति इति परम्परासम्बन्धेन निष्पन्नं भवति.
समीचीनं समीचीनं. अन्येन केनापि आगतं वा अत्र?
आं भगिनि, सावित्री.
हा, हरि ओं भगिनि.
पञ्चनिमिषः भवति, इदानीमेव आगतवती, पुस्तकं उद्घाटितम्.
अस्तु अस्तु अस्तु. हा, तर्हि सुनील् महोदय, पुनः कीदृशेन सम्बन्धेन दण्डः कपाले अस्ति इति वदति वा?
अपि च शुकवनम् अपि च रामप्रिया भगिनी अपि वर्गे आसीत् अस्ति.
अस्तु अस्तु, क्षम्यताम्, अहं सङ्गणके नास्ति.
अतः एव.
परन्तु श्रूयते एव.
तर्हि रामप्रिया भगिनी, श्रवणमहोदय, सरला भगिनी, सुनील् महोदय, सावित्री भगिनी, खलु?
श्रूयते किल?
श्रूयते
श्रूयते.
ध्वनिः न
अहं चिन्तितवती न श्रूयते इति एव नाम न उक्तवती इति.
अस्तु अस्तु, न न श्रूयते. अस्तु, सुनील् महोदय वदतु कृपया.
दण्डे क्रिया भवति, सा क्रिया चक्रे अपि भवति, अतः अत्र तत्संयोगवशात् चक्रे भ्रमिः भ्रमणम् उत्पद्यते इति. अतः तेन भ्रमणेन कपाले अपि भ्रमणम् उत्पद्यते. अतः इदानीं स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः तज्जन्याभ्रमिः कपालनिष्ठाभ्रमिः इति वदामः. अतः कपाले तादृशपरम्परासम्बन्धेन दण्डः भ्रमणम् उत्पद्यते इति कार्यं जनयति इति भ्रमणम्
कीदृशसम्बन्धः अस्ति
इदानीं परम्परासम्बन्धः एव किल.
हरि ओम् किं
परम्परासम्बन्धः
परन्तु विस्तरेण वदतु सम्बन्धस्य निरूपणं किम् अस्ति स्वजन्य किम्
अत्र स्वजन्य भ्रमिजन्य भ्रमिमत्तारूपः इति अस्ति अत्र.
तर्हि तादृशः सम्बन्धः कुत्र अस्ति
इदानीं कपालदण्डयोः मध्ये अस्ति
कपाले अस्ति खलु
कपालः
दण्डः इति पूर्वमेव उक्तं स्वेन जन्य स्व इत्युक्ते दण्डेन जन्य जन्यभ्रमिः या चक्रे अस्ति पुनः चक्रेण जन्यभ्रमिः कपाले अस्ति तति ब्रह्मिमत्ता इति भावः वदामः कपाले अस्ति इति. तर्हि कपालः कीदृशः ब्रह्मिमत्ता कपाले अतः कपालः
अतः तदेव अत्र स्वजन्यभ्रमिजन्य भ्रमिमत्तारूपः इति कपालः किल
तादृशः सम्बन्धस्य निरूपणम् अस्ति
ब्रह्मिमत्तारूपः
इति. परन्तु कपालस्य किं कपालः कीदृशः इति इत्युक्ते तस्मिन् ब्रह्मिः अस्ति इति कृत्वा कपालः पुल्लिङ्गरूपेण किं वक्तव्यम्
स्वजन्यभ्रमिः इति वा
भ्रमिमान् इति खलु यथा बुद्धिमान् यस्मिन् अस्ति यस्मिन् भ्रमिः अस्ति सः भ्रमिमान् इति अस्तु. तर्हि अतः परामर्शः
अतः दण्डः घटं प्रति न समवायकारणं नापि असमवायकारणं किन्तु निमित्तकारणम् इति भवति.
अस्तु समीचीनम् तत्तु अवगतं खलु सर्वेषां. सावित्री भगिनी
भगिनी अहम् इदानीमपि न प्राप्तं पुस्तकं उद्घाटितं परन्तु करपत्रमपि अस्ति इति भाति खलु
प्रथमं पठ्यते तदनन्तरमेव करपत्रम् इदानीं तु पुस्तके एव
पुस्तकमयं
षोडश अधिक एकशतम् इति पुटः अस्तु. तर्हि रामप्रिया भगिनी पठति वा
अनन्ताः हि
पृच्छतु वा किमर्थं दण्डः वा चक्रं घटं प्रति निमित्तकारणम् इति अवगतं खलु प्रश्नः पृच्छन्तु
अवश्यम्
अस्तु.
इदानीम् अनन्ता हि कार्यकारणभावाः न प्रत्येकं परीक्षितुं शक्याः समवायादीन् बुद्ध्वा ऊहापोहकुशलैः तत्र तत्र कार्यः विवेकः इति अलम् प्रसक्तानुप्रसक्तविचारेण इदानीम् अनन्ता हि कार्यकारणभावाः कार्यकारणभावाः अनन्ता इत्युक्ते तस्य प्रत्येकं परीक्षितुं शक्य प्रत्येकं कार्यकारणभावः न परीक्षितुं शक्नुमः किमर्थम् इत्युक्ते ते अनन्ताः इति एव अर्थं किल
अनन्ताः अत्र किं
न न एकम् अनेकम् इति
अनेकाः इति
अनेकाः समवायादीन् बुद्ध्वा ऊहापोहकुशलैः तत्र तत्र कार्यविवेकः इति अलम् समवायादीन् बुद्ध्वा
भगिनि अलं तदनन्तरम् अस्ति खलु शब्दः
प्रसक्त प्रसक्त अनुप्रसक्त विचारेण
इति तस्य अन्वयः अस्ति
इति वा ओके
परन्तु किमर्थम् अनन्ताः इति
अहं चिन्तयामि एक एक पदार्थं स्वीकुर्मः चेत् तस्य कार्यकारणभावः अनन्ताः इति अस्ति वयं तु घटं कपालम् इत्येव स्वीकृत्य किं वदामः तस्य एकम् एकं स्वीकृत्य तस्य आधारेण सर्वं साधयामः इति अन्यविषये अपि
आम् आम् तत्तु तत्तु एकम् अस्ति बहवः पदार्थाः वा बहवः गुणाः सन्ति तेषां कार्यकारणभावाः अपि बहवः सन्ति तत्सर्वं परिशीलनीयं चेत् बहु कार्यं भवति इति परन्तु महोदयेन अन्यत् अपि उक्तम् एकं कश्चन घटः अस्ति एकं घटं स्वीकृत्य तस्य कार्यकारणभावः इति अस्माभिः दृष्टं परन्तु एकं घटं प्रति एकः विशिष्टः कपालः एव कारणं पुनः अन्यः घटं निर्माणं कुर्मः चेत् पुनः अपरः कपालः कारणं भवति इति घटं प्रति विशिष्टकपालः कारणम् इति अतः सामान्यतया कार्यकारणभावः इति वयं पश्यामश्चेत् तत्र महोदयेन उक्तं यत् घटत्वं प्रति कपालत्वं कारणम् इति भावरूपेण अस्ति म्यूट् कुर्वन् धन्यवादः अतः एव अनेकाः कार्यकारणभावाः
भगिनी न श्रूयते
हरि ओम्
इदानीं श्रूयते आम्
आम्
मध्ये मध्ये न
प्रायः म्यूट् न कृतं केनापि अस्तु आम् हरि ओम्
आं श्रूयते भगिनि
अग्रे वदतु भगिनि समवायादीन्
बुद्ध्वा ऊहापोहकुशलैः यदा समवायादीन् इत्युक्ते सम्बन्धविषये एव किल समवायादीन् बुद्ध्वा एतद् ज्ञात्वा ऊहापोहकुशलैः ऊहा इत्युक्ते आम् कुशलैः इत्युक्ते निपुणः इति ऊहापोहे निपुणः ऊहा इत्युक्ते चिन्तनम् इति किल
आम् आम् तत् महोदयेन उक्तं यत् न्यायशास्त्रे तु तर्करूपेण या चर्चा भवति चिन्तनं भवति ऊहा इति इत्युक्ते ऊहा क्रियते चेत् किमपि प्रस्थाप्यते, प्रस्थापनं क्रियते पण्डितैः, तस्य प्रस्थानं करोति, तस्य निराकरणम् इति अपोहः इति. स्थापनं निराकरणम् इति अस्ति
तस्मिन् कुशलैः.
आम् इत्युक्ते
आं भगिनि
वदतु वदतु भगिनि अग्रे.
ऊहापोहे ये ये ऊहापोहे कुशलैः तत्र तत्र कार्यं विवेकः इति अलं प्रसक्त अनुप्रसक्त विचारेण प्रसक्त अनुप्रसक्त विचारेण ऊहापोह कुशलैः. तृतीया विवेकः इति कार्यं कार्यविवेकः तत्र तत्र कार्यः विवेकः इत्येव अलम् इति अस्ति.
इत्युक्ते अत्र प्रसक्तः इत्युक्ते अस्माकं मूलविषयः यः अस्ति स एव प्रसक्तः इति. अस्माकं मूलविषयः अस्ति स्नेहः. एतावता स्नेहस्य स्नेहस्य विषये एव चर्चा जाता. तदनन्तरं दण्डः वा चक्रविषये इतोपि निमित्तकारणत्वेन चर्चा जाता. यत् यः मूलविषयः अस्ति तत् प्रसक्तः इति अस्ति. अत्र तु स्नेहस्य आधारेण दण्डः अपि निमित्तकारणं, घटं प्रति पुनः चक्रम् अपि निमित्तकारणम् इति सर्वं साध्यते खलु. अतः मूलकारणम् आधाय यत्किमपि साध्यते तत्तु अनुप्रसक्तः इति अर्थः. स्नेहविषये निमित्तकारणत्वम् अस्ति. किमर्थं निमित्तकारणत्वं? सर्वाः सर्वान् सम्बन्धान् दृष्ट्वा स्नेहे स्नेहस्य निमित्तकारणत्वमेव अस्ति इति प्रस्ताप्य अनन्तरं दण्डविषये अपि तु चक्रविषये अपि तादृशाः सम्बन्धाः एव दृश्यन्ते इति सर्वं दृष्ट्वा कश्चन परामर्शः दृश्यते खलु. दण्डस्य निमित्तकारणत्वम् अपि तु चक्रस्य निमित्तकारणत्वम् इति. परन्तु तादृश कार्यं विस्तृततया सर्वं वर्णयित्वा तादृशवर्णनं बहु कार्यं भवति, बहुधा कार्यम् अस्ति खलु तत्र. तत्तु केवलम् ऊहापोहकुशलैः क्रियते इति. अतः वयं तु तादृशं न करणीयं. तादृशी आवश्यकता नास्ति इति अस्ति. अलम् अलं प्रसक्त अनुप्रसक्तविचारेण अलम् अलम् इत्युक्ते पर्याप्तम्. इतोपि तादृश विस्तृततया तादृशं कार्यं न करणीयं, चर्चा न करणीया इति. अवगतं वा?
अवगतम्.
इति तत्र तत्र कार्यः विवेकः इत्युक्ते विवेकः कार्यः. विवेकः इत्युक्ते विचारणं वा समीक्षा कार्यः इति. केवलं पण्डितैः यत् यत् क्रियते तत् अङ्गीकृत्वा अग्रे सरेम इति. सर्वेषां विषये एतादृश गम्भीररीत्या परिशीलनं मास्तु इति अस्ति अर्थः. अस्तु, अग्रे सावित्री भगिनी।
भगिनी, तस्मिन् वाक्ये मम चिन्तनं किञ्चित् भिन्नरीत्या अस्ति, तत् उपस्थापयितुम् इच्छामि, शक्यते
वा?
प्रथमम् अनन्ता हि कार्यकारणभावाः इत्यत्र वयं पूर्वं दृष्टवन्तः घटकपालयोः मध्ये समवायि कारणत्वमस्ति, अपि च कपालसंयोगः अपि च घटयोः मध्ये असमवायि प्रथमविधा समवायिकारणमस्ति, अपि च घट कपालपरिमाणम् अपि च घटपरिमाणयोः मध्ये द्वितीयविध असमवायिकारणमस्ति, अपि च स्नेह पिण्डीभावयोः मध्ये एकविधनिमित्तकारणत्वम् अस्ति, अपि च दण्डचक्रादीनां अपि च घटयोः मध्ये अन्यविधनिमित्तकारणत्वम् अस्ति इति, तादृशम् अनन्ताः कार्यकारणभावाः अस्ति इत्यपि अनन्ता इति शब्दस्य अवगमनं भवितुम् अर्हति इति मम चिन्तनम्।
तत्तु एकम् इत्युक्ते घटविषये समवायिकारणम् असमवायिकारणं निमित्तकारणानि बहूनि सन्ति, पुनः अन्यः घटः स्वीकृतः चेत् पुनः तादृशमेव अस्ति खलु, बहूनि कारणानि सन्ति।
तादृशं महोदयेन उक्तं, किन्तु मम चिन्तनं यदा वयं स्नेह पिण्डीभावः स्वीकुर्मश्चेत् तयोः मध्ये एकविधनिमित्तकारणत्वम् अस्ति, दण्डः अपि च घटः इति स्वीकुर्मश्चेत् तत्रापि निमित्तकारणत्वं, किन्तु तत्र भिन्नरीत्या कारणत्वमस्ति, स्वजन्यभ्रमिजन्यभ्रमिमत्ता इति तत्र तयोः मध्ये सम्बन्धः अस्ति इति, यदि अन्यपदार्थाः वयं स्वीकुर्मश्चेत् तत्र अपि निमित्तकारणं वा समवायिकारणं वा भवितुम् अर्हति, किन्तु तदपि किञ्चित् यद् एतावत्पर्यन्तम् अस्माभिः दृष्टः तदपेक्षया किञ्चित् भिन्नरीत्या अपि भवितुम् अर्हति इति, प्रत्येकं कार्यकारणभावयोः मध्ये सर्वं स्वीकृत्य कीदृशसम्बन्धः अस्ति इति परीक्षितुं न शक्यः इति उक्तः इति अपि तस्य वाक्यस्य अवगमनं भवितुम् अर्हति इति मम चिन्तनम्।
इत्युक्ते भवान् वदति यत् भिन्नाः सम्बन्धाः अपि भवेत् ये एतावता न दृष्टः इति वा?
आम् आम्।
इत्युक्ते अस्माभिः दृष्टं यत् केवलं समवायिसम्बन्धः संयोगसम्बन्धः इति कारणविषये खलु?
न न, तादृशं नास्ति। निमित्तकारणं स्वीकुर्मश्चेत् अत्र स्नेहपिण्डीभावयोः मध्ये स्व आश्रयसंयुक्तत्वसम्बन्धेन तयोः मध्ये निमित्तकारणत्वं
परम्परारीत्या अस्ति।
आम्, किन्तु तत्र परम्परा केवलं परम्परा इति वदति चेत् न पर्याप्तं, कीदृशसम्बन्धः इति अपि वक्तव्यं किल। स्नेहपिण्डीभावयोः मध्ये स्व आश्रयसंयुक्तत्वसम्बन्धः अस्ति, दण्डघटयोः मध्ये स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपः इति अस्ति, तदपि निमित्तकारणं, पूर्वमपि निमित्तकारणं, किन्तु तत्र संयोगः यद्यपि परम्परासम्बन्धेन अस्ति, कीदृशपरम्परासम्बन्धः इति वदामश्चेत् तत्र भिन्नमस्ति किल। अनन्ताः इति अनन्ताः इति अपि भवितुम् अर्हति इति मम चिन्तनम्।
अस्तु, प्रायः महोदय, मम चिन्तने तु यद्यपि दण्डविषये स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपः इति तस्य नामकरणम् अस्ति, तत्तु संयोगरूपः एव, इत्युक्ते स्व संयुक्तत्वरूपसम्बन्धः इति सामान्यतया, परन्तु विशिष्टरूपेण भ्रमणेन जन्यः तादृशसम्बन्धः इति, अतः प्रायः सम्बन्धाः तु भिन्नाः भवेयुः, परन्तु कथञ्चित् समवायरूपेण वा संयोगरूपेण परम्परया वा साक्षात् वा भवति इति परन्तु प्रायः यद् भवान् तत्तु
आम् इति एकम् अपि च अलम् इति पदं तत्र दत्तमस्ति किल तत्र मा करणीयः इति भवत्या उक्तं मास्तु इति तादृशं न अवगन्तव्यम् इति मम चिन्तनं किमर्थम् इत्युक्ते अत्र यः पुस्तकं लिखितवान् सः वदति न प्रत्येकं परीक्षितुं शक्यः किन्तु ऊहापोहकुशलैः तत्र तत्र कार्यः विवेकः तत् सन्दर्भं दृष्ट्वा वक्तुं शक्यते बुद्ध्वा तत् सन्दर्भं बुद्ध्वा ऊहापोहकुशलैः कीदृशसम्बन्धः अस्ति इति यदा अस्माभिः चर्चा प्रसक्तः तद् अनुप्रसक्त्य विवेकः कर्तुं शक्यते इति वक्तुम् अलम् इति अवगन्तव्यम् इति मम चिन्तनं मास्तु इति नास्ति तत्र
इत्युक्ते मास्तु इत्युक्ते मम अवगमनम्
अस्ति कर्तुं शक्यते
इतोपि तेन मार्गेण गमनं तु क्लिष्टकरः अस्ति भवति इति
क्लिष्टकरः इति अपि किमर्थं वक्तव्यम् अस्माभिः अपि कर्तुं शक्यते किल
इत्युक्ते न सामर्थ्यम् इति न अर्थः परीक्षितुं प्रत्येकं परीक्षितुं न शक्याः इति किमर्थं भवति
बहु क्लिष्टकरम् तत्र एव अहं वदामि भगिनि प्रत्येकं परीक्षा कर्तुं न शक्या इति अस्य पुस्तकस्य किं वदति पुस्तकस्य लेखकः अस्ति किल तेन न शक्याः इति प्रत्येकं सर्वम् अपि एतत् पुस्तके दातव्यं चेत् तत् न शक्याः इति
आमाम् अवश्यम् अवश्यं
लेखकेन न शक्याः इति प्रत्येकं ये यत्र यत्र कार्यकारणभावाः सन्ति तत्सर्वं स्वीकृत्य तत्र कीदृशसम्बन्धः अस्ति इति वक्तुं न शक्याः किन्तु अस्माभिः विवेकितुं शक्यते कदा इति यदा मार्गं दर्शितं तादृशरीत्या अस्माभिः अपि कर्तुं शक्यते इति एव
आम् महोदय भवान् वदति भवान् तु वदति यत् अस्माकमपि कुशलता अस्ति इति खलु
कुशलता अस्ति इति न वदामि किन्तु यदा मार्गं दर्शितं तद् अनुसृत्य अस्माभिः अपि कर्तुं शक्यते इति अतः लेखकेन अनेककार्यकारणभावाः कीदृशम् इति न दत्तं पुस्तके यदि अस्माकम् इच्छा अस्ति चेत् नूतन प्रायः तन्तुः अस्ति पटः अस्ति तयोः मध्ये कीदृशसम्बन्धः अस्ति तन्तोः वर्णः सन्ति पटोः पटस्य अपि वर्णाः सन्ति तयोः मध्ये कीदृशसम्बन्धः अस्ति पुस्तके साक्षात् न दत्तं किन्तु अस्माभिः प्रसक्तविचारेण तदपि कर्तुं शक्यते इति अलम् इति लेखकेन उक्तम्
आम् अलम् इत्युक्ते अत्र इनफ् इति खलु
आम् आम्
इत्युक्ते स्नेहस्य विषयम् आदाय यत्किमपि आसीत् तत्तु अत्र पर्याप्तम् अस्ति इतोपि अधिकम् आवश्यकं चेत् कर्तुं शक्यते परन्तु अत्र तु अलम् इति
आम् आम्
अस्तु
अस्तु
सावित्री भगिनी हरि ओम् नास्ति वा
अस्ति दृश्यति तस्याः
अस्तु तर्हि भवान् एव पठतु
सावित्री भगिनी अस्ति अस्तु अहं पठामि प्रकृतमनुसरामः सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता स च स्नेहः जलमात्रवृत्तिः न अन्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशः पिण्डीभावः सम्भाव्यते घृततैलादिसंयोगे सति तथाविध इव अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः इदानीं प्रकृतमनुसरामः इत्युक्ते इदानीम् अस्माकं चिन्तनं तु स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वं तस्मिन् विषये चर्चाम् इतोपि वर्धयामः इति सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता आम् स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इति तत्र समवायिकारणत्वम् असमवायि प्रथमविध असमवायिकारणत्वं द्वितीयविध असमवायिकारणत्वम् इति सर्वं दृष्ट्वा तत्र स्नेहस्य पिण्डीभावं प्रति कारणत्वम् अस्ति इति किन्तु तादृशं नास्ति इति कृत्वा निमित्तकारणत्वम् इति अस्माभिः स्वीकृतः स च स्नेहः जलमात्रवृत्तिः इति लक्षणवाक्ये लक्षितं चूर्णादिपिण्डीभाव पिण्डीभावहेतुर्गुणः स्नेहः जलमात्रवृत्तिः इति स्नेहस्य जलमात्रवृत्तित्वं लक्षितं न अन्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशः पिण्डीभावः सम्भाव्यते इति प्रतिज्ञारूपेण अत्र उक्तं यत्र यत्र पिण्डीभावः भवति तत्र तत्र जल जलांशसंयोगेन एव पिण्डीभावः भवति इति प्रतिज्ञारूपेण उक्तमत्र इदानीं पूर्वपक्षी वदति घृततैलादिसंयोगे अपि पिण्डीभावः भवति तत्र वार्ता किम् इत्युक्ते तत्रापि यदा वयं पिण्डीभावः अनुभूयमानः तत्रापि जलांशेन एव घृततैलादौ अपि जलांशः सन्ति यदा वयं पूर्वम् उदाहरणं दृष्टवन्तः यदा वायौ गन्धः अस्ति जले गन्धः अपि अनुभवति इति स्थितौ तत्र पृथिव्याः अंशाः तत्र मिश्रिताः इति कारणेन एव वायौ नो चेत् जले अपि गन्धः अस्माभिः अनुभूयते तत्र मिश्रणं पृथिव्याः अंशाः न मिश्रणम् अस्ति चेत् गन्धः वायौ न अनुभवितुं शक्यते नो न वा जले इति किमर्थमित्युक्ते गन्धः तु पृथिव्याः पृथिवीमात्रवृत्तिः वृत्तित्वमस्ति इति कारणेन
तत्सर्वं करपत्रे अस्ति महोदय
भगिनि श्रूयते वा इदानीं
न श्रूयते भगिनि
श्रूयते भगिनि
भवतीं
बहुवारं भग्नम् अभवत् पुनः पुनः आगतवती परन्तु न जाने किम् अभवत् अत्र अस्तु इदानीं श्रूयते वा
इदानीं तु श्रूयते अस्तु शुकमनं महोदय तावदेव खलु अत्र विषयः
भगिनि
हरि ओम्
आम् आं भगिनि तावदेव
अस्तु अग्रे विस्तृतरीत्या वयं पठामः करपत्रं कृपया उद्घाटयन्तु
पूर्वम् एकः प्रश्नः अस्ति पूर्वस्मिन् परिच्छेदे अन्तिम वाक्यमस्ति खलु श्रूयते वा
श्रूयते
अस्तु अस्तु तत्र अन्तिमवाक्ये क्रियापदं किमस्ति समवायादीन् बुद्ध्वा ऊहापोहकुशलैः तत्र तत्र कार्यः विवेकः इति अलम्
इत्युक्ते अत्र कार्यः इति प्रत्ययः अस्ति विवेकः कार्यः इति करणीयम्
अस्तु तथैव अस्तु अस्तु करणीयम् इति वा अस्तु
आम्
अस्तु, तत्र यत् शुकवनमहोदयेन यत् उक्तं तत् सम्यक् अवगतं, परन्तु प्रश्नः आसीत् तावदेव भगिनि.
अस्तु पठति वा करपत्रात्?
आं, करपत्रम् उद्घाटयामि पुनः. अस्तु,
अन्य केनापि संयोजितं वा इदानीम्?
अहमेव पुनः पुनः आगतवान्, मम दूरवाणी अपि किञ्चित्.
अस्तु वा,
किमपि समस्या अस्ति अद्य, चत्वारः पुनः पुनः आगतवती, परन्तु कोऽपि न श्रूयते मम ध्वनिः. अस्तु, इदानीं श्रूयते खलु?
आमां श्रूयते, सम्यक्तया श्रूयते.
अस्तु, मम पर्यायः वा भगिनि, अहं पठामि वा?
आम् आं भगिनि.
अस्तु, अन्वयव्यतिरेकाभ्यां पिण्डीभावकारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अत्र विद्याधर्यामस्ति पृष्ठसङ्ख्ये 16 पुटे इत्यस्मिन्. सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता, स च स्नेहः जलमात्रवृत्तिः. नान्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशः पिण्डीभावः सम्भाव्यते. धृततैलतैलादिसंयोगे सति तथाविध इव अनुभूयमानोऽपि धृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः. यथा जलादौ गन्धप्रतीतिर्जायते, किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति? पृथिवीसम्बन्धसत्त्वे, पृथिवीसम्बन्धसत्त्वे द्विवारं लिखितम् अस्तु एव जलादौ गन्धप्रतीतिसत्त्वं. पुनः पठामि, पृथिवीसम्बन्धसत्त्वे, पृथिवीसम्बन्धसत्त्वे एव जलादौ गन्धप्रतीतिसत्त्वं. पृथिवीसम्बन्धाभावे च गन्धप्रतीत्यभावः, इदम् अन्वयव्यतिरेकम्. अन्वयव्यतिरेकाभ्यां जले गन्धस्य प्रतीतिः अस्ति. अनेन अयं गन्धः पृथिव्याः एव इति कथनसामर्थ्यम् उत्पद्यते. अनेन च ज्ञायते जले गन्धौ नास्ति, जले पृथिवी न दृश्यते, किन्तु जले गन्धः अस्ति चेत् तस्मिन् जले पृथिव्याः भागः अस्ति इति मन्तव्यम्. अस्तु, इदानीमेव शुकवनमहोदय उक्तवान् खलु, तदेव अस्ति. अस्तु, प्रथमवारं पठामि, किञ्चित् क्लेशाय. अस्तु, यथा सः उक्तवान् अत्र जलादौ गन्धप्रतीतिर्जायते, कुत्रचित् जले अपि गन्धः प्रतीयते खलु, तत्र उदाहरणं स्वीकृत्य अत्र विवरणं दत्तमस्ति. किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति? पृथिवीसम्बन्धसत्त्वे. किमर्थं द्विवारं लिखितमस्ति तत्र भगिनि?
अत्र कुत्र भवति इत्यस्य उत्तरम् अस्ति पृथ्वीसम्बन्धसत्त्वे इति. पुनः
पृथ्वीसम्बन्धौ
गन्धप्रतीति सत्त्वम् इति.
क्षम्यताम्, अहं सम्पूर्ण पङ्क्तिं न दृष्टवती, अन्तिमपर्यन्तं न दृष्टवती. अस्तु, पृथिवीसम्बन्धसत्त्वे, पृथिवीसम्बन्धसत्त्वे एव जलादौ गन्धप्रतीतिसत्त्वम् इत्युक्ते यथा महोदयेन उक्तम् इदानीमेव, पृथिव्याः अंशाः भवन्ति चेदेव जले गन्धः प्रतीयते. नो चेत् जल पृथिवी तु गन्धः तु पृथिव्याः लक्षणमस्ति, जलस्य न इति. पृथिवीसम्बन्धाभावे च गन्धप्रतीत्यभावः, यदा पृथिव्याः कणाः जले जले संयुक्तं न सन्ति तदा गन्धः जले न प्रतीयते. इदमेव अन्वयव्यतिरेकम् इत्युक्ते अस्ति अस्ति कार्यमस्ति कारणमस्ति. अन्वयव्यतिरेकाभ्यां जले गन्धस्य प्रतीतिः अस्ति. इत्युक्ते अत्र व्यतिरेकः इति न दर्शितं खलु?
तस्य विद्यमानं तत्तु अन्वयेन एव इत्युक्ते कार्यमस्ति अतः कारणम् अस्ति इति प्रतीतिः.
अस्तु, अन्वयव्यतिरेकाभ्यां जले गन्धस्य प्रतीतिः. अत्र प्रक्रिया इति अन्वयव्यतिरेकः इति प्रत्यय प्रक्रिया अस्ति. तस्य चिन्तनेन एव गन्धस्य प्रतीतिः अस्ति इति वक्तुं शक्नुमः. जले अनेन अयं गन्धः पृथिव्याः एव इति कथनसामर्थ्यम् उत्पद्यते. इत्युक्ते प्रथममेव किञ्चित् चिन्तनं कुर्मः चेत् पृथिव्याः लक्षणं किं, जलस्य लक्षणं किम्, अपि च अन्वयव्यतिरेक विवेकः अपि जानीमः चेत् तदा चिन्तनेन वयं वक्तुं शक्नुमः यदा गन्धः जले अस्ति तदा पृथिव्याः कणाः भवन्ति, नो चेत् जले गन्धः न भवितुम् अर्हति इति कथनसामर्थ्यम् अस्माकं भवति. नो चेत् ज्ञानं नास्ति चेत् न भवितुम् अर्हति इति. अनेन च ज्ञायते जले गन्धो नास्ति. सत्यं, जले पृथिवी न दृश्यते किन्तु जले गन्धः अस्ति चेत् तस्मिन् जले पृथिव्याः भागः अस्ति इति मन्तव्यम्. पुनः तदेव लिखितमस्ति, जले पृथिव्याः कणः सन्ति चेदेव तस्मिन् गन्धः प्रतीयते, नो चेत् गन्धः जले न प्रतीयते. तदर्थं वयं वक्तुं शक्नुमः पृथिव्याः कणाः जले संयोगेन भवन्ति इति.
समीचीनं भगिनि. अत्र अन्वयव्यतिरेकः इति उद्दं खलु. अन्वय इत्युक्ते यथा भवत्या उक्तं गन्धः
अस्ति अतः कारणमपि अस्ति.
अत्र कार्यं किम् अस्ति?
गन्धः.
कारणं
भवति पृथिव्याः कणाः जले संयोगेन भवन्ति.
यदि व्यतिरेकः अस्ति तर्हि व्यतिरेकः कुत्र भवति?
व्यतिरेकः इत्युक्ते कार्यमस्ति कारणं नास्ति.
न भगिनि, अन्वय इत्युक्ते यथा भवत्या उक्तं
कारणस्य अभावः कार्य अभावः भवति.
ओ क्षम्यतां, सत्यं भगिनि, सत्यं सत्यं
अत्र कथं प्रयुज्यते?
अत्र पृथिव्याः कणाः जले नास्ति, जले गन्धः अपि नास्ति. कार्यं नास्ति, गन्धः नास्ति जले, पृथिव्याः कणाः अपि जले नास्ति.
समीचीनं. यथा पूर्वमेव अस्माभिः दृष्टं धूमः, वह्निः इति सर्वं खलु. धूमः अस्ति अत एव वह्निः अस्ति इति परामर्शः वा अनुमितिः. कार्यमस्ति अतः कारणं भवेत् इति. व्यतिरेके वन्याभावः अस्ति अतः धूमाभावः, अत एव धूमाभावः इति. वह्नि नास्ति अत एव धूमः नास्ति इति.
आं भगिनि, सत्यम्. अत्र द्वयोः सन्ति, अन्वयः अपि अस्ति व्यतिरेकः अपि अस्ति. अस्तु,
आम् आम् अस्तु. अग्रे
अपि च भगिनि, किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति इति दोषाय इति अहं चिन्तयामि. कथं भवति इत्येव भवेत्.
किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति,
कुत्र इति, कथम् इति भवेत् इति स्यात्.
परन्तु उत्तरं भवितुम् अर्हति खलु, पृथिव्याः भागे अथवा पृथिव्याः कणे एव भवन्ति इति
अस्ति.
पृथिव्या पृथिवी सम्बन्धसत्त्वे इति लिखितमस्ति किल,
स्वसमवायसंयुक्तत्वसम्बन्धेन परम्परा.
गन्धप्रतिः कुत्र भवति इत्युक्ते पृथिव्यां भवति इति उत्तरं समीचीनं भवति, किन्तु पृथिवी सम्बन्धसत्त्वे
इति कृत्वा कथं भवेत् इति वा?
आम्
आम् तदेव अर्थः इति मन्ये.
तदेव विवक्षा आसीत्, किन्तु तत्र कुत्र इति दोषाय कथम् इति भवेत् इति अहं चिन्तयामि.
सतिसप्तमी किल, सतिसप्तमी अतः कुत्र इति प्रश्नः.
अग्रे कस्य सरला भगिनी अस्ति वा?
आं भगिनी अस्मि.
पठितुं शक्नोति वा?
प्रकृतविषये यदा चिन्तनं क्रियते तदा सर्वप्रथमं श्रूयते न?
आमां.
तदा सर्वप्रथमं स्नेहः जले एव इति साध्यते. स्नेहः जले एव अस्ति, अन्यत्र स्नेहः नास्ति इति. किन्तु तैलादौ अपि पिण्डीभावजनकत्वम् अस्ति. पिण्डीभावश्च स्नेहं विना न सम्भवति. अनेन तैले जलांशम् अस्ति इति सिद्ध्यति. जलादौ यः स्नेहः वर्तते सः तु जलस्य एव. अत्र अस्माकं यः विषयः अस्ति पिण्डीभाव प्रति स्नेह जले कथम् अस्ति, तत्र उदाहरणमस्ति. यदि वयं जानीमः स्नेह जले जलमात्रवृत्तिः अस्ति, कथं साध्यते स्नेह जले एव अस्ति, अन्यत्र स्नेह नास्ति, किन्तु तैलादोपि पिण्डीभावजनकत्वम् अस्ति. वयं जानीमः यदि तैलादौ एवं पिष्टे संयोजामः तत् पिण्डीभावः दृश्यते. पिण्डीभावः यदि दृश्यते तत् वयं जानीमः स्नेहं तैलादौ इति अस्ति. यदि स्नेह तैलादौ अस्ति परन्तु तैलं तु
भगिनी तत्र भवती यत् वदति तत् सत्यं. प्रथमं तु पिण्डीभावः दृश्यते, तदनन्तरं
तस्य जनकत्वं किम् अस्ति, तस्य कारणं विचारणीयं.
कारणं किं?
पिण्डीभावस्य कारणम् अस्ति स्नेहं सदा.
तदनन्तरं
पिण्डीभावस्नेहं विना न भवति. अनेन तैले जलांशस्ति इति सिद्ध्यति. तद् अनन्तरं तथैव वयं साध्यामः तैले जलस्य अंश भवति इति कारणे तैले स्नेहः भवति. तत् कारणं तैले पिण्डीभावं दृश्यते. तैलादौ यः स्नेहः वर्तते स तु जलस्य एव. अतः स्नेह विद्यमानस्नेह जले तैलम् अस्ति. तैलस्य विद्यमानपिण्डीभाव तैले स्नेहस्य कारणात् तु जलस्य कारणे अस्ति.
यः स्नेहः इति कारणं स्थाप्यते, किमर्थम् इत्युक्ते पिण्डीभावः तु दृश्यते तत्र तैले. स्नेहः अस्ति, वयं तु जानीमः यत् स्नेहः जलमात्रवृत्तिः इति. अतः तत्र जलं भवेत्, तैलसंयोगेन जलम् अस्ति इति परामर्शः. अस्तु, अग्रे रामप्रिया भगिनी.
पिण्डीभावजनकत्वं दृष्ट्वा स्नेहः अस्ति इति सिध्यति. स्नेहः अस्ति चेत् जलांशः अस्ति इति सिध्यति. यतो हि स्नेहः जलस्य एव गुणः, अतः क्रमः एवम्. स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाध्य पिण्डीभावः कस्मिंश्चित् पिष्टे अनुभूतः, अनन्तरं पिण्डीभावस्य कारणं स्नेहः, अतः स्नेहः अपि अत्र भवेत्. अनन्तरं स्नेहः जले एव, अतः अत्र जलमपि भवेत्. अधुना पिष्टेन सह तैलस्य संयोजनेन पिण्डीभावो जायते, अनेन अत्र स्नेहो वर्तते. तैलं तु पृथिवी अस्ति, पृथिव्यां च स्नेहः न सम्भवति इत्यस्मात् तैले विद्यमानः स्नेहः जलस्य एव तैले च जलभागो अपि अस्ति इति पर्यवसितम्. अत्र प्रथमं पिण्डीभावजनकत्वं दृष्ट्वा स्नेहः अस्ति इति सिध्यति. प्रथमं यदा वयं स्नेहः पिण्डीभावे अस्ति इति दृष्ट्वा वयं क्षम्यतां पिण्डीभावजनकत्वं दृष्ट्वा वयं वक्तुं शक्नुमः स्नेहः अस्ति इति. स्नेहः यदा अस्ति चेत् पिण्डीभावे, तत्र जलांशः अपि अस्ति इति वक्तुं शक्नुमः. किमर्थम् इत्युक्ते स्नेहः जलस्य एव गुणः, जलस्य गुणः गुणः एव स्नेहः, अतः वयं वक्तुं शक्नुमः स्नेहः अस्ति इति. इदानीं क्रमः एवम् इति अस्ति. स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाद्य, प्रथमं स्नेहे जलमात्रवृत्तित्वम् इत्युक्ते जले एव विद्यमानत्वम् इति प्रथमं संसाध्य, द्वितीयं क्षम्यताम् अग्रिमम् अस्ति पिण्डीभावः कस्मिंश्चित् पिष्टे अनुभूतः. पिण्डीभावः कस्मिंश्चित् पिष्टे अनुभूतः इत्युक्ते अनुभवामः इति. कस्मिंश्चित् पिष्टे पिण्डीभावः अस्ति इति अनुभूतः. अग्रिमं वयं वक्तुं शक्नुमः पिण्डीभावस्य कारणं स्नेहः.
भवती अवगतवती वा किम् इति? प्रथमं यानम् अपेक्षते,
प्रथमं जलमात्रवृत्तित्वम् अस्ति इति
ज्ञानम् अपेक्षते
प्रथमं.
इदानीं अनुभवः कः, किम् अनुभूयमानः अस्ति?
पिष्टे पिण्डीभावः, क्षम्यताम्
समीचीनमेव इति, पिण्डीभावः अस्ति इति तत्तु दृश्यते.
अनन्तरं पिण्डीभावस्य कारणं किम् इत्युक्ते स्नेहः. अतः अत्र इत्युक्ते तस्मिन् समये स्नेहः अपि भवेत् तस्य कारणम् इति कारणेन तत्र भवेत् इति.
कारणं स्नेहः एव, अन्यत् किमपि न. पिण्डीभावम् अस्ति चेत् अवश्यं तत्र स्नेहः एव कारणम् इति. तदनन्तरं
स्नेहः जले एव, अतः अत्र जलमपि भवेत्. स्नेहः कुत्र वर्तते इत्युक्ते जले वर्तते, अतः जलमपि अत्र भवेत्.
जलम् अपि वा,
जलम् अपि इति एव, अत्र जलमपि भवेत् इति एव लिखितम् अस्ति किल.
भवत् स्ववाक्यैः वदतु भगिनि, यत् भवती यदि पिष्टं पश्यति अत्र तत्र किमपि तैलम् अस्ति इति चिन्तयतु, तैलसंयोगेन पिष्टम् अस्ति. तर्हि भवत्याः चिन्तनं किम्?
प्रथमं तैले जलमात्रवृत्तित्वम् अस्ति. आम् तैले अपि जलमात्रवृत्तित्वम् अस्ति इति ज्ञानम् इति वक्तुं शक्नुमः किल?
जले खलु?
तैले
तैले न जले खलु? जले एव
जले जलमात्रवृत्तित्वम् अस्ति इति ज्ञानं प्रथमम्. आं भगिनि,
किं किञ्चित् भ्रमः जातः. कस्य वृत्तित्वं जले?
स्नेहस्य जल
स्नेहस्य स्नेहस्य जलमात्रवृत्तित्वं
स्नेहस्य वृत्तित्वं जले इति.
आम् 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 अनन्तरं पिष्टे पिण्डीभावः अस्ति इति अग्रिमम्. अनन्तरं पिण्डीभावस्य कारणं किम् इत्युक्ते स्नेहः एव कारणम्. अतः तत्र स्नेहः एव
तत्र जलं
आं भगिनि,
अतः जलं भवेत् अत्र इति खलु?
आम् आम् आम्
आम्
अतः आम् अतः जलं भवेत् अत्र.
परन्तु अत्र तैलं तैलेन सह तैले जलांशः भवति इति पर्यवेक्षणम्. यथा धूमः दृश्यते चेत् अवश्यं वह्निः भवेत् इति परामर्शः खलु वा अनुमति. अत्रापि अनुमानेन एव ज्ञायते यत् पिण्डीभावः तु दृश्यते, पिण्डीभावं प्रति अवश्यं स्नेहः कारणम् इति ज्ञायते. स्नेहः अस्ति चेत् अवश्यं जलं भवेत्. अतः अत्र यद्यपि तैलेन सह तैलेन एव पिष्टम् अभवत्, तैले जलांशः अस्ति इति परामर्शः. इदानीम् अवगतं खलु?
आं भगिनि आम्
भगिनि, यत्र यत्र पिण्डीभावः तत्र तत्र स्नेहभावः स्नेहः तत्र तत्र जलांश.
आम्
आम्
अस्तु. अग्रे सुनील् महोदय.
अत्र विद्याधिर्यां लिखितमस्ति यत् घृततैल तैलादिसंयोगो सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि घृगादौ विद्यमानेन जलांशेनैव इति अन्यव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः. अस्य च अर्थः कः इति परिशीलनीयः. यदि अस्य अर्थः अस्ति यत् घृततैलादिसंयोगो सति तथाविध इव पिण्डीभावः अनुभूयमानः तथापि घृगादौ विद्यमानेन जलांशेनैव अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः इति तादृशः अर्थः अस्ति चेत् तर्कः प्रायः सम्यक्तया न प्रवर्तते. पुनः कथञ्चित् भिन्नरीत्या पठामश्चेत् कार्यं तर्कम् अनुसृत्य भवति. तच्च इदम् अन्वयव्यतिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादिसंयोगो सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि घृगादौ विद्यमानेन जलांशेनैव इति अवधारयामः. प्रश्नः अत्र अयं यत् मूलवाक्ये अवधारयामः इति क्रियापदस्य अन्वयः केन सह जलांशेनैव इति अथवा जलमात्रवृत्तित्वम् इति. अत्र इदानीं पुनः विद्याधैर्यां किम् अस्ति इति, अत्र घृततैलादिसंयोगो सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि गृहादौ विद्यमानेन जलांशेनैव इति अन्वय व्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः इति. अत्र घृततैलादिसंयोगः अस्ति चेत् तत्र तत्रापि पिण्डीभावः अस्ति, अतः गृहात् घृता अस्ति अथवा अत्र जलांशः अपि अस्ति, तत्र पिण्डीभावः अस्ति इति एव तस्य कारणम् अस्ति स्नेहः इति. अत्र कः अर्थः इति अपि अधिकं परिशीलनीयमिति. अत्र यदि अस्य अर्थः अस्ति यत् घृततैलादिसंयोगो सति तथाविध इव पिण्डीभावः अनुभूयमानः, पुनः तदेव वाक्यं स्वीकृत्य अत्र प्रथमं तु घृतादौ जलांशः अस्ति इति प्रथम अंशः, अनन्तरं तत्र अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः. अत्र घृतादौ जलांशः अस्ति, अतः अत्र पिण्डीभावः अपि अस्ति, तस्य कारणमस्ति स्नेहः इति. स्नेहः जलमात्र वृत्तित्वं स्नेहस्य इति अपि अस्ति, अतः अत्र अन्वयव्यतिरेकाभ्यां भावः इति स्वीकृत्य अत्र जलमात्रवृत्तित्वम् अस्ति, अनन्तरं पिण्डीभावः अपि अस्ति इति.
वदतु महोदय.
अतः यदि तादृश अर्थः अस्ति चेत् तर्कः प्रायः सम्यक्तया न प्रवर्तते, अतः अत्र
प्रायः प्रश्नः किमर्थम् अर्थः न सम्यक्तया न.
अत्र इदानीम् अहं चिन्तयामि अन्वयव्यतिरेकाभ्यां यदि स्वीकृत्य अत्र यदा
किम् अस्तु प्रथमं तु क्रियापदं किम् अस्ति अत्र?
अत्र अवधारयामः इति अस्ति, तद् अधोलिखितम् अस्ति अत्र तत्कारणस्य स्नेहस्य.
एकनिमिषम्, अवधारयामः इत्युक्ते किम्?
तद् वयं तादृशं स्वीकुर्मः इति एव किल अत्र
स्वीकुर्मः वा जानीमः सम्यक्तया जानीमः इति.
अत्र अधोलिखितमस्ति तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्, अतः कृततैलादिसंयोगो सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः इति अन्यः विकल्पः. अहं पुनः तत्रैव पश्यामि, पुनः आगच्छामि अत्र. अतः इदानीं पुनः किञ्चित् भिन्नरीत्या पठामः चेत् कार्यं तर्कम्
अनुसृत्य किमर्थम् अर्थः न प्रवर्तते इति प्रथमं द्रष्टव्यं खलु, अतः एव तदर्थमेव क्रमस्य परिवर्तनं भवति. किमर्थं क्रमस्य परिवर्तनम् अग्रे?
अत्र इदानीम् अत्र घृततैलादिसंयोगः यदि पश्यामः चेत् अत्र पिण्डीभावः अस्ति अस्ति वा इति एकः प्रश्नः अस्ति, तदेव
भागशः पश्यामः महोदय. सावित्री भगिनी प्रयत्नं करोति वा?
भगिनि किमस्ति अत्र किञ्चित् कुत्रापि गन्तव्यमासीत् इदानीमेव आगतवती परन्तु इति तादृशः अर्थः अस्ति चेत् तर्कः प्रायः सम्यक्तया न प्रवर्तते इति भवत्याः प्रश्नः अस्ति तत् तत्पूर्वं किम् अस्ति अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः इति न स्वीकरणीयम् इति खलु इत्युक्ते तत्र किमस्ति चेत् तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति पूर्वं ज्ञात्वा एव अवधारयामः यत् जलांशेन पिण्डीभावं दृश्यते इति
समीचीनं भगिनि.
अत्र विकल्पद्वयमिति अस्ति इति भाति परन्तु प्रथमवाक्यं यत् सुनील् महोदय इदानीं प्रतिपादयति तत्र अर्थः भवति यत् एवं निश्चयामः यत् स्नेहस्य जलमात्रवृत्तित्वम् इति तथा नास्ति खलु तत्पूर्वं ज्ञात्वा एव इदानीं वदामः अथवा निश्चयामः यत् यतोहि धृतादौ अपि पिण्डीभावं दृश्यते तत्र कारणमस्ति विद्यमानेन जलांशेनैव पिण्डीभावं दृश्यते इति निश्चयं कुर्मः.
समीचीनं. तर्हि परिवर्तितः क्रमः कः, कथं रचयामः वाक्यं?
पुनः वाक्यं कुत्र अस्ति? प्रथम
तैलादिसंयोगे सति इति अस्माकं वाक्यं खलु.
धृततैलादिसंयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि धृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः इति अस्ति. परन्तु सम्यक्तया योजयामः चेत् धृततैलादिसंयोगे सम्यक्तया वदामि न वा इति न जानामि, प्रयत्नं करोमि. धृततैलादिसंयोगे अपि पिण्डीभावः अनुभूयते. किमर्थं चेत् धृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः.
तत्तु सत्यं. तर्हि अवशिष्टम्
अवशिष्टम् अन्वयव्यतिरेकाभ्यां वा? अस्तु, अर्थं जानामि भगिनि. इदानीं सम्यक्तया वाक्यं वक्तुं किञ्चित् भवति इति मन्ये. प्रायः
भवत्या उक्तं. शुकवनमहोदय, भवान् वदति वा?
महोदयेनैव दत्तमस्ति अस्मिन् करपत्रे कथं तस्य अन्वयः करणीयम् इति. तच्च इदम् अन्वयव्यतिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादिसंयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानेऽपि घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः.
किमर्थम् एतादृशी रचना?
नो चेत् अत्र अवधारयामः इति क्रियापदं तत् जलमात्रवृत्तित्वे अपि किं वदति अन्वयः कर्तुं शक्यते. जलांशेनैव अपि इति पदस्यापि अन्वयः कर्तुं शक्यते. किन्तु किं समीचीनम् इत्युक्ते जलांशेनैव इति एव तस्य अन्वयः भवेत्, न तु जलमात्रवृत्तित्वे इति.
प्रथमं जलमात्रवृत्तित्वम् इति ज्ञानस्य पूर्वज्ञानम् अपेक्षितम्. नो चेत् कथं वा स्थापयामः?
यथा भवत्या पूर्वमेव उक्तं खलु, पृथिव्याः लक्षणं गन्धः इति पूर्वमेव अस्माभिः ज्ञातं. तत् ज्ञानम् आदाय एतादृशी अनुमितिः भवति. कीदृशी अनुमितिः?
घृतादौ अनुभूयमानः पिण्डीभावः जलांशेन विद्यमानः जलांशेनैव इति निश्चयं कुर्मः.
समीचीनम्. इदानीं सुनील् महोदय, भवान् प्रयत्नं करोति
वा? इदानीम् अहम् अवगच्छामि, परन्तु पुनः वक्तुं क्लेशः.
किम् इति प्रथमं तु क्रियापदमस्ति अवधारयामः इति. किम् अवधारयामः? भवतः अवगमनम् एव वाक्यं तु त्यजतु. भवतः अवगमनं किम् अत्र?
मम अवगमनमस्ति अत्र घृततैलसंयोगः अस्ति, तत्र पिण्डिभावः अपि अस्ति, तस्य कारणमस्ति स्नेहः, तद् जलमात्रवृत्तित्वम् इति कारणेन.
एकनिमिषं, स्नेहस्य कारणं जलमात्रवृत्तित्वम् इति वा?
न, स्नेहः जले अस्ति.
तत्तु अस्माभिः पूर्वतनज्ञानमेव अस्ति.
अतः तत्र पिण्डीभावः अपि अस्ति.
पिण्डिभावः अपि इति न, पिण्डीभावः अस्ति इति दृश्यते. तैलादिसंयोगे सति पिण्डीभावः, तत्तु प्रथमभागः. तत्तु अनुभूयमानः अस्ति पिण्डीभावः. अनुभूयमानोऽपि इत्युक्ते तत्र महोदयेन एव दीयते. तथापि घृतादौ विद्यमानेन जलांशेन एव तादृशपिण्डीभावः कथं किमर्थम् उत्पद्यते?
अत्र इदानीं जलांशः अस्ति इति कारणेन इति
आम् तदेव. तदनन्तरम् अन्वयव्यतिरेकाभ्याम् इति अस्ति. किमर्थम्
अत्र जलांशः नास्ति चेत् पिण्डीभावः न भवति इति?
आम्, अन्वयव्यतिरेकाभ्याम्. अत्र तु पिण्डीभावः अस्ति, कार्यम् अस्ति खलु, अतः कारणं भवेत्. पिण्डीभावः अस्ति स्नेहात् एव पिण्डीभावः. स्नेह तु जले एव अस्ति, अतः तत्र जलं भवेत्, जलांशरूपेण जलं भवेत् इति कारणम्. अन्वयव्यतिरेकाभ्याम् अग्रे पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति तु पृथक् नयामः. तत्र अवधारयामः इत्यस्मात् पूर्वं न भवति, जलांशेन एव अवधारयामः इत्येव अन्वयः. अवधारयामः तत्र अन्तिमं वाक्यं पठतु कृपया.
प्रश्नः अत्र अयं यत् मूलवाक्ये अवधारयामः इति क्रियापदस्य अन्वयः केन सह? जलांशेनैव इति अथवा जलमात्रवृत्तित्वम्?
इदानीं वदतु महोदय.
अतः इदानीं मूलवाक्ये अवधारयामः इति क्रियापदं स्वीकुर्मः चेत् अत्र केन सह इति प्रश्नः उदयति. अतः अत्र जलांशेनैव इति अथवा जलमात्रवृत्तित्वेन इति स्वीकरणीयम्.
तर्हि अस्माकं पृथक् भागः यः अस्ति स्नेहस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वं पृथक् नीत्वा प्रथमं स्थापयामः. इत्युक्ते तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः अन्वयव्यतिरेकाभ्यां प्रथमं स्थापयितुं शक्यते, नो चेत् अग्रे अपि. तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वं तत्तु वयं जानीमः. अतः घृततैलादिसंयोगे सति तथाविध इव पिण्डीभावः अनुभूयमानोऽपि अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः. तदपि शक्यः. अस्तु, इदानीं प्रश्नाः सन्ति वा?
तत्र इति अन्यः विकल्पः इति दत्तमस्ति किल, तत्र विकल्पं किम् इत्युक्ते अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं ज्ञायते इति तु एकम्, अन्वयव्यतिरेकाभ्यां जलांशेनैव घृतादौ विद्यमानेन जलांशेनैव इति तदेव वैकल्पिकं तत्र. अन्वयव्यतिरेकाभ्याम् इति कुत्र अन्वयः भवति इति प्रथमवाक्ये अन्वयव्यतिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वं, अन्तिमवाक्ये अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेनैव इति.
परन्तु भवतः अवगमनं किम् अत्र, विकल्पद्वयम् इति वा?
विकल्पद्वयम्
इत्युक्ते अर्थः भिन्नः वा?
आम्, अर्थः भिन्नः. अन्वयव्यतिरेकाभ्यां तत्र कस्य अन्वयव्यतिरेकं वयं कुर्मः चेत् प्रथमवाक्ये जलमात्रवृत्तित्वम् इति संसाधनार्थम् अन्वयव्यतिरेकः कुर्मः. अन्तिमवाक्ये द्वितीयवाक्ये अन्वयव्यतिरेकं तु घृतादौ विद्यमानजलांशं निरूपाय अन्वयव्यतिरेकम् इति.
परन्तु मम चिन्तनम् अस्ति यत् तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति तस्य कृते अन्वयव्यतिरेकम् आवश्यकं वा इति. तत्तु ज्ञानं खलु.
कथं तद् ज्ञानं सम्पादयति? स्नेहः तु प्रत्यक्षं नास्ति.
न, परन्तु स्नेह जलमात्रवृत्तिः इति वयम्
आम, यदि तादृशं स्वीकुर्मश्चेत् तथा ज्ञानं प्राप्स्यति. किन्तु पूर्वस्मिन् परिच्छेदे अन्वयव्यतिरेकाभ्याम् एव ज्ञानं भवति इति.
न, अत्र तस्य संशयः एव नास्ति. जलमात्रवृत्तिः, स्नेहस्य जलमात्रवृत्तित्वे संशयः नास्ति एव. तत् स्वीकृत्य एव अग्रे गच्छामः अत्र.
भगिनी पश्यतु, भगिनी प्रथमवाक्यं पुनः पठामि. अन्वयव्यतिरेकाभ्यां तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वं तावदेव वयं स्वीकुर्मश्चेत् तत्र अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वम् अस्माभिः ज्ञायते. अन्तिमवाक्ये अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेनैव इत्युक्ते तत्र अन्वयव्यतिरेकं कुत्र कुर्मः चेत् यदि घृतादौ जलांशः नास्ति, यदि घृतादौ जलांशः सत्त्वे सति पिण्डीभावं, घृतादौ जलांशः अभावे सति न पिण्डीभावम् इति तत्र अन्वयव्यतिरेकः. किन्तु पूर्वस्मिन् वाक्ये अन्वयव्यतिरेकः कुत्र इत्युक्ते यदा जलसत्त्वे पिण्डीभावः सत्त्वः, जल अभावे पिण्डीभावः अभावः इति अन्वयव्यतिरेकः तत्र.
सत्यं, परन्तु तत्र अस्माकं लक्ष्यं नास्ति खलु. अस्माकं लक्ष्यं तु अस्ति किमर्थं धृतादौ अपि पिण्डीभावं द्रष्टुं शक्यः. यथा वयं चिन्तयामः धृतः जलं नास्ति, तत्र एव अन्वयव्यतिरेकस्य अपि च अवधारयामः इत्यस्य अन्वयः अस्ति. प्रथमवाक्ये यथा भवान्
इति वदति चेत् इति अन्यः विकल्पः इति महोदयेन किमर्थं दत्तम्? अन्यः विकल्पः इति.
हा, सत्यं, विकल्पः अस्ति, परन्तु अस्माकं लक्ष्यं तु अन्तिमवाक्ये अस्ति इति मम चिन्तनं. तत् सम्यक् वा?
उभयोः अपि भवितुम् अर्हति अन्वयव्यतिरेकाभ्याम् इति जलमरात्रवृत्तित्वे अपि भवितुम् अर्हति घृतादौ विद्यमानेन जलांशेनैव इत्यपि भवितुम् अर्हति.
वस्तुतः मया पृष्टं महोदयेन किमर्थम् एतादृशं नास्ति इति अन्वयव्यतिरेकाभ्यां जल जलांशेन किं किमस्ति तत्र अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः. तेन उक्तं यत् अन्वयव्यतिरेकाभ्याम् इति प्रथमवाक्ये अस्ति, मूलवाक्ये अस्ति इति कृत्वा तद् तद् आनीतम् अस्ति अत्र. परन्तु अर्थः समानः एव इति तेन उक्तम्. इत्युक्ते इत्युक्ते मम अवगमनमस्ति अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेनैव इति तस्य विवरणस्य कृते एव अन्वयव्यतिरेकाभ्यां निदर्शनम् अस्ति.
तादृशं
महोदय यद् भवान् वदति तदपि सत्यमेव महोदय. भवान् यत् वदति अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः. तत्र भवतः प्रश्नः अस्ति अन्वयव्यतिरेका कुत्र उपयोगं कुर्मः अवधारयामः इति, तस्य अन्वयः कुत्र अस्ति तत् भवतः प्रश्नः नास्ति खलु.
चर्चितं तत् अवधारयामः स्नेह जलांशेनैव इत्येव अन्वयः भवेत् इति.
परन्तु अहं जानामि यद् भवान् वदति पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वं तत्र सम्यक् यद् भवान् वदति तत्रापि अन्वयव्यतिरेकः विवेकः अस्ति एव. पिण्डीभावः अस्ति तस्य कारणः तस्य कारणमस्ति स्नेहः तस्य जलमात्रवृत्तित्वम् अत्र अस्ति तत्र अपि अस्ति अत्र नास्ति चेत् तत्रापि नास्ति इति तत् सम्यक् एव. भवान् यत् वदति अवगच्छामि परन्तु तदा अस्माकं लक्ष्यं नास्ति खलु.
पिण्डीभावः अस्ति अतः स्नेहः अस्ति इत्येव अन्वयः अस्ति. परन्तु स्नेहस्य जलमात्रवृत्तित्वम् इति
नास्ति. आम् तद् लक्षणवाक्यस्य स्वीकुर्मः.
आम्
इति नास्ति चेत् तच्च इदं तदनन्तरं यद् वाक्यं दत्तमस्ति तत् न दातव्यम्. अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादौ संयोगे सति इति अतः इति तत्र दत्तमस्ति किल. जलमात्रवृत्तित्वम् अन्वयव्यतिरेकाभ्यां निरूपितम् अतः घृततैलादौ संयोगे सति तथाविधैव पिण्डीभावः अनुभूयमानेपि घृतादौ विद्यमानेन जलांशेनैव इति अवधारयामः इति न दातव्यम्.
परन्तु यद् जयन्ती भगिनी वदति मम चिन्तनं समानम्. अन्वयव्यतिरेकाभ्यां जानीमः यत् पिण्डीभावः अस्ति तत्कारणमस्ति स्नेहः. स्नेहस्य जलमात्रवृत्तित्वम् इति तु लक्षणवाक्यात् आनयामः. अन्वयव्यतिरेकाभ्यां न
गन्धः अस्ति इति अन्वयव्यतिरेकेण न तत्तु लक्षणवाक्यमस्ति.
तदेव अहं वदामि भगिनि इति अस्ति चेत् जलमात्रवृत्तित्वम् अन्वयव्यतिरेकाभ्यां न साधयामः इति भवत्याः उक्तं. तद् नास्ति चेत् तादृशं चेत् यदा महोदयेन अत्र दत्तं तद् दोषाय अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः इति लिखितमस्ति किल.
महोदयेन उक्तं यत् अहम् अन्वयव्यतिरेकाभ्यां पूर्वभागे स्थापितवान् यतोहि अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति ग्रन्थकारस्य वाक्ये आसीत् इति तस्य उत्तरे अस्ति. इत्युक्ते
तादृशं नास्ति इति अहं चिन्तयामि. अन्वयव्यतिरेकाभ्यां वाक्यद्वयमपि पठतु.
महोदय अहं किं वदामि यत् मम अवगमनमपि तदेव अस्ति. इत्युक्ते यद् महोदयः वक्तुम् इच्छति तत् विकल्परूपेण एव दत्तम् अस्ति. परन्तु अन्वय व्यतिरेकाभ्याम् इति पूर्वं यत् स्थापितम् अस्ति तस्य अन्वयः तु कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति न तस्य 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 अन्वयः तु अग्रे आयाति इति तस्य आशयः तु तदेव अस्ति.
अस्तु भगिनि.
परन्तु विशदीकरणार्थं पृच्छामि किम् अत्र स्थापनेन किञ्चित् भ्रमः भवति इति पृच्छामि. परन्तु मम अवगमनेन तस्य आशयः तु समानः एव.
अत्र एतस्मिन् करपत्रे चिन्तनद्वयम् अस्ति. मूलवाक्ये अवधारयामः इति पदं केन सह अन्वयितव्यम् इति एकम्, अपि च अन्वयव्यतिरेकाभ्याम् इति पदस्य केन सह अन्वयितव्यम् इति प्रश्नद्वयम् अस्ति अत्र. अस्य उत्तरम् अवधारयामः इति पदं केवलं जलांशेन एव इति तत्र निरूपितं, किन्तु अन्वयव्यतिरेकाभ्याम् इति पदस्य अन्वयः वैकल्पेन भवितुमर्हति. प्रथमं तु जलमात्रवृत्तित्वेन, द्वितीयं तु घृतादौ विद्यमानेन जलांशेन एव. इति द्वयोः अपि अन्वयः कर्तुं शक्यते इति मम अवगमनम् इति वा इति महोदयं पृच्छतु.
आम् आम् अवश्यं महोदय, अवश्यं समीचीना चर्चा, समीचीना चर्चा, अहम् अवश्यं पृच्छामि.
अस्तु भगिनि. किमर्थम् अहं वदामि इत्युक्ते तत्र इति अन्यः विकल्पः इति महोदयेन दत्तम्. अन्यः विकल्पः इत्युक्ते द्वितीयविधि अवगमनं भवितुम् अर्हति इति.
आम् आम् अवगच्छामि. अस्तु, अन्य प्रश्न अस्ति वा अस्मिन् विषये?
धन्यवादः.
अस्तु, धन्यवादः, शुभरात्रिः.